ॐ सहस्रशेरुषं देवं विश्वाक्षं विश्वशंभवं विश्वं नारायणं देवमक्षरं परमं पदम् विश्वतः परमान् नित्यं विश्वं नारायणगुं हरिम् विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवते पथं विश्वस्यात्मेश्वरगुं शाश्वतगुं शिवमच्युतम् नारायणं महाज्ञेयं विश्वात्मानं परायणम् नारायण परो ज्योतिरात्मा नारायणः परः नारायण परं ब्रह्मतत्त्वं नारायणः परः नारायण परो ध्याता ध्यानं नारायणः परः यश्च किञ्चित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः अनन्तमव्ययं कविगुं समुद्रेऽन्तं विश्वशम्भुवम् पद्मकोशप्रतीकाशगुं हृदयं चाप्यधोमुखम् अधो निश्चापितस्यान्तेनाभ्यामुपरितिष्ठते ज्वालमालाकुलं भाते विश्वस्यायतनं महत् सन्तदगुं शिलाभिस्तुलं बत्याकोशसन्निभौ तस्यान्ते शिशिरगुं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वाच्यर्विश्वशम्भुवम् तस्य मध्ये महानग्निर्विश्वाच्यर्विश्वतोमुखः सोग्रभुग्विभजन् तिष्ठन्नाहारमजरः कविः त्रियगोर्ध्वमधस्यायैरस्मयस्तस्य सन्तत सन्तापयति स्वं देहमापादलमस्तकः तस्य मध्ये वह्निशिखा अनीयोर्ध्वा व्यवस्थितः नीलतो यदमध्यस्ताद्विज्जुर्लेखे बभास्वर नीवारसोकवत्तन्वेपीताभास्वत्यणोपमा तस्याशिखाया मध्ये परमा आत्मा व्यवस्थितः स ब्रह्म स शिवः स हरिश्चेन्द्रसोऽक्षरः परमः स्वराट् ॐ तद्ब्रह्म ॐ तद्वायुः ॐ तदात्मा ॐ तत्सत्यम् ॐ तत्सर्वम् ॐ तत्पुरोर्नमः अन्तःशरदि भूतेषु गुहायां विश्वमूर्तिषु त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वगुं रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं प्रजापतेः त्वं तदापहापोज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्सुवरो ॐ शान्तिः शान्तिः शान्तिः।